ग्रन्त्यवाएतद्यज्ञैर्यदेनन्तन्वते यत्राजानभिशृण्वन्ति तत्त्वं घ्नन्त्यथ यत्पशुसंज्ञपयन्ति यद्विशासति तत्त्वं घ्नन्त्युलु कलमुसलेन दृशदुपलेन हविर्यज्ञं घ्नन्ति स ए पग्नो हतो यज्ञो न ददक्षे तं देवा दक्षिणभिर्दक्षयाञ्चक्रुस्तस्माद्दक्षिणा नाम यदा विरदक्षयज्ञस्तस्मादुदक्षिणा दद्यात् स यद्दक्षिणा ददाति यदेवः तस्य यज्ञस्यौ व्यथते त देवास्यैतद्दक्षिणाभिर्दक्षयद्यथ समृद्ध एव यज्ञः ताश्चद्दध्यात् षड्वारुतवः संवत्सरस्य संवत्सरो यज्ञ यज्ञः प्रजापतिः स यावानेव प्रजापतिर्यावत्यस्य मात्रा तावतीभिरे वैनमे तद्दक्षयति अथो चतुर्विघ्नोशतिं दद्याच्चतुर्विघ्नोशतिर्वा अर्धमासाः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव प्रजापतिर्यावत्यस्य मात्रा तावतीभिरे वैनमे तद्दक्षयत्ते ता आदिष्ठाः कामं यथा श्रद्धं भूयसीर्दद्यात् द्वया उवावदेवा देवा हैवान्यद्देवा अथे मे मनुष्यदेवाय इमे ब्राह्मणा शुश्रुवा नूसो नूचानास्तेषां वेधा विभक्तो यज्ञ आहुतय एव देवानां दक्षिणा मनुष्यदेवानां ब्राह्मणाना नूशुश्रूषामनूचानानाग्नूस आहुतिभिरेव देवा प्रीणाति दक्षिणाभिर्मनुष्यदेवान् ब्राह्मणान् शुश्रूषो नूचानाग्स्त एनमुभये देवा प्रीता सुधाय दधति यथो वैरेतो यो नौ दध्या देवमेतदृत्विजः स्वर्गे लोके यजमानं दधति तेभ्य एतद्ददाति एमे दग्धो सम्प्रापिपन्नितीत्युनुदक्षिणानाम् अथ देवाश्च हवा असुराश्चोभये प्राजापत्या अस्पर्धन्त तेहो भयेनात्मान आसुर्मर्त्याख्यासुरणात्मा हि स यो मर्त्यस्तेषु हाग्निरेवामृतमासतमुभय उपाजीवग्स्तेषाग्नो हस्मयं घ्नन्ति तद्वस्मै स भवति ततो तदेवास्तनीयाग्नो सैव परिशिशिशिरे तेहार्चन्तश्राम्यन्तः कथग्नो सपत्ना न सुरा न बिभवे मेति ते हैतदेवाज्ञाधेयं ददृशुः तेहोचुर्हन्ते तदमृतमन्तरात्मन्याधायेत्यमृता भूत्वा स्तर्यान् सपत्नान्मर्त्या नसुरान विभविष्याम इति तेहोचुर्भयेषु वैनो यमग्निरिति हन्तासुरेभ्य प्रतिप्रवामेति ते हासुरा नेत्योचुरा वैव यमग्निं धास्यामहेथैनं यूयं किं करिष्यथेति ते हासुरा असूयन्त इवोचुरथैनं वयन्नेव धास्यामः इत्यत्र तृणानि दहात्र दारूणि दहात्रम नो सम्पचात्रौ धनं पचेति सोऽयम यमग्निर्येनेदं मनुष्या भुञ्जते यमिदमिमा प्रजा उपजीवन्ति अथैनं देवा अन्तरात्मन्याधायामृता भूत्वा स्तर्या सपत्नान्मर्त्यानसुरानभ्यभवग्भुस्तस्मैकमग्नि आदधीतनामृतत्वश्याशास्त्यस्तर्यो हैव भवति न हैनं तु स्तूर्षमानश्च न स्तृणुते तस्माद्यदाहिताग्निश्चानाहिताग्निश्च स्पर्धेते आहिताग्निरेवाभिभवत्यस्तर्यो हि स भवति तं यत्रादो मन्थन्ति तदेनं जातमभिप्राणिति प्राणो वा अग्निर्जातमेवैनं तज्जनयत्यथोदनिति तदे नमन्तरात्मन्याधत्तेऽथेतरमुज्ज्वलयन्तीहो श्यामीह यक्षैः साधु करिष्यामीति तद्धैकेशामाग इव भवत्यन्वगन्मिति तदुना द्रियेतन वा अस्यैषोऽनुगच्छति योऽस्यान्तर मन्याहितो भवत्यनो व्ययासीद्रथो व्ययासीत अन्तरागादिति हैकेशामाग इव भवति तदूनो एवाद्रियेतन वा अस्यैतमनो वियाति न रथो वियाति नान्तरेणैति कश्चन योऽस्यान्तरात्मन्याहितो भवति ते वा एते प्राणा एवाग्नयः प्राणोदाना वेवा हवनीयश्च गार्हपत्यश्च व्यानो वाहार्यपचनस्तस्य वा एतस्याज्ञाधेयस्य सत्यमेवोपचारः स यथा समिद्धमग्निं हृतेनाभिषिञ्चेत्तस्य वै भूयो भूयस्तेजो भवति सश्वश्वश्रेया भवत्येवग्नो हैव कीर्त्या यशसा श्रियाश्वश्वश्रेया भवति योऽग्नि आधाय सत्यं वदति अथ यथा समिद्धमग्निमुदकेनाभिषिञ्चेत्तस्य वै कनीयः कनीयस्तेजो भवति सश्वश्वः पापि यान् भवत्येवग्नो हैव कीर्त्या यशसा श्रियाश्वश्वः पापि यान् भवति योऽग्नि आधाय मृषा वदत्यरुणग्नो हौपवेशिं ज्ञातय ऊचुस्थविरो वा अस्यग्नि आधत्स्वेति सहोवाच तन्मै तद्ब्रूथवाचय्यम एवै धीति मा ब्रूथेति नह्यग्नि आधाय मृषा वदेन्नो वाचा वदतो वृषोद्यमस्ति तस्मादु सत्यमेव विवदिषेत्